संस्कृत रीडिंग नंबर 5 श्रावण कथा पेज 399। श्रावणो नाम कश्चिद्युवकः कस्मिंश्चिन्नगरे वसत्। तस्य माता पिता च वृद्धा भवतां। तस्य न कश्चिद् भ्राता वा भगिनी वा वर्तत। तौ वृद्धौ पितरौ चलितुं द्रष्टुं चासमर्था वविद्येताम्। तथापि श्रावणस्य पितरौ प्रति महती भक्तिरभवत्। अथैकदा श्रावणस्य माता भर्तारमवदत्, हे भर्तः, आवामधुना वृद्धौ, कदा नौ मरणं भविष्यतीत्यावान्न बोधावः। मरणात् प्रागहं काशीनगरं गत्वा तत्र गंगानद्यां स्नातुमिच्छामि। तत आवां श्रावणं प्रक्ष्यावः। स आवां काशीनगरीं नेष्यतीति। एवं मन्त्रयित्वा तौ पितरौ श्रावणमभाषेताम्। हे प्रियपुत्र श्रावण, आवां गंगायां स्नातुं काशीपुरं गन्तुमिच्छाव इति। पित्रोर्भक्त्या श्रावणेनाभाष्यत, यथा युवामिच्छथस्तथाहं युवां काशीपुरं नेष्यामीति। दरिद्रस्य श्रावणस्य गृहे किञ्चित् पुराणं शकटमवर्तत, किन्तु तच्छकटं क्रष्टुमश्वो नाभवत्। चलितुमसमर्थौ तौ पितरौ शकटे स्थापयित्वा श्रावणः स्वयमेव तच्छकटं मार्गेणाकर्षत्। शकटं कर्षन्तं श्रावणं दृष्ट्वा मार्गेण गच्छन्तो जनास्तस्य भक्तिमशंसन्। पितरौ काशीनगरीं नयतस्तस्य मार्गे किञ्चिद् वनमवर्तत। शकटं कृष्ट्वा परिश्रान्तः श्रावण रात्रौ कस्यचिद् वृक्षस्याधस्तच्छकटं स्थापयित्वा मात्रा पित्रा च सह निद्रां लब्धुमैच्छत्। तस्य पितरावपि परिश्रान्तौ पयः पातुमिच्छन्तौ पुत्राया कथयताम्। हे पुत्र, आवां पयः पातुमिच्छावः। तत एतस्मिन् पात्रे कुतश्चित् किञ्चित् जलमानय। अत्रैव काचिन्नदी कश्चिद् ह्रदः कूपो वा भवेदिति। जलमानेष्यामीत्युदित्वा श्रावणो जलमानेतुं करयोः पात्रमेकमादाय कञ्चिद् ह्रदं गत्वा तत्र जलेन तत्पात्रं पूरयितुमारब्धवान्। तस्यैव ह्रदस्य समीपं कस्मिंश्चिद् वृक्षे मृगयार्थं स्थितो दशरथो नाम नृपतिस्तमसि जलस्य ध्वनिमशृणोत्। सोचिन्तयत्, रात्रौ कश्चित् पशुर्ह्रदस्य जलं पातुमागत इति। एवं मत्वा स भूभृद् यस्यान्दिशि जलस्य ध्वनिरभवत् तस्यान्दिशि निशितमिषुं प्राक्षिपत्। दशरथस्येषुणा विद्धश्रावणो भूमौ पतन्ने वाभाषत। हा हा पितः, हा हा मातः, इषुणा विद्धोऽहं म्रिय इति। तन्मनुष्यस्य वचनं श्रुत्वा हा किमेतदभवदिति भाषमाणो नृपः श्रावणं प्रत्यधावत्। तस्योरसः स तमिषुं निष्कृष्य तस्मै म्रियमाणायावदत्, नाहं त्वां हन्तुमिषुं प्राक्षिपम्, किन्तु तमसि त्वमेव ममेषुणा विद्धः। किमहं करिष्यामि, कथं त्वां रक्षिष्यामीति। एवं नृपेण भाष्यमाणो म्रियमाणश्रावणो वदत्, हे नृप, अहं तु मरिष्याम्येव, किन्तु मे मात्रे पित्रे चैतज्जलं प्रयच्छेति इति वदन्नेव श्रावणो म्रियत। दुःखेन कराभ्यां शीर्षं स्पृशन् स नृपः पात्रे जलमादाय श्रावणस्य वृद्धौ पितरावुपागच्छत्। द्रष्टुमसमर्थौ तौ श्रावणं प्रतीक्षमाणौ पितरौ श्रावण एव आगच्छतीति मत्वा मोदेताम्। किमप्यभाषित्वैव नृपस्ताभ्याञ्जलं दातुं प्रायतत। किन्तु वृद्धौ तौ पितरा बभाषेताम्। हे श्रावण, कुतस्त्वं न भाषसे, कुतस्त्वं कुप्यसि? यदि त्वं न भाषेथास्तर्हि नावां जलं पास्याव इति। अगतिको नृपो वदत्, दशरथो नाम नृपोऽहम्, अज्ञानान् मया क्षिप्ते नेषुणा विद्ध श्रावणो ह्रदस्य तीर एवाम्रियत। नाहं तं हन्तुमैच्छम्, किन्तु पशुं हन्तुमिच्छता मया, तमसि युवयोः पुत्र एवेषुणा हतः। कथमहमेतत् पापं निराकरिष्यामि? अहं युवां मम प्रासादं नीत्वा सेविष्ये, मामेव युवां पुत्रं मन्येयाथामिति। पुत्रस्य मरणेन विद्धौ तौ पितरौ नृपमवदताम्। हे नृप, यत्रावयोः पुत्रस्तत्रैवावां गमिष्यामः, नावामेतज्जलं पास्यावः। पुत्रस्य मरणेन यदा वयोर्दुःखमजायत, तत्त्वन्नाधुना बोधसि। किन्तु यथा वां पुत्रस्य शोकेन मरिष्यावस्, तथा त्वमपि तव पुत्रस्य शोकेन मरिष्यसीति। एवं भाषित्वा तौ वृद्धौ तत्रैव वने जीवनमत्यजताम्। मृतं श्रावणं तस्य पितरौ च तत्रैव वने दग्ध्वा, दशरथो दुःखेन स्वं प्रासादं प्रत्यगच्छत्। यदा दशरथस्य पुत्रो रामो राज्यं त्यक्त्वा वनाय प्रातिष्ठत, तदा दशरथोऽपि शोकेनाम्रियत।